इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः सुरेश चन्द शर्मा। अथ वार्ताः। प्रधानमन्त्री श्रीनरेन्द्रमोदी नवदेहल्याम् इटली देशस्य उपप्रधानमन्त्रिणा सममेव विदेशमन्त्रिणा एण्टोनिया ताजानी इत्यमुना साकं मेलनं कृतवान्। संचारतन्त्रपटले श्रीमोदी उल्लिखितवान् यत् भारत इटली देशयोः मैत्रीसम्बन्धाः सततं दृढीभूताः। श्रीमोदी प्रोक्तवान् यत् प्रमुखेषु क्षेत्रेषु इटली भारतदेशयोः संयुक्त रणनीतिक कार्ययोजनायाः कार्यान्वयनदिशि उभाभ्यां देशाभ्यां प्रवर्तमानाः पदक्षेपाः प्रशंसनीयाः सन्ति। प्रधानमन्त्री श्रीनरेन्द्रमोदी इज़राइल देशीयेन प्रधानमन्त्रिणा बेंजामिन नेत्यन्याहु इत्यमुना साकं दूरभाषमाध्यमेन सम्भाषणं कृतवान्। वार्तान्तर्गतम् उभाभ्यां नेतृभ्यां भारत इज़राइल रणनीतिक प्रगति सम्बन्धाः प्रशंसिताः। उभौ नेतारौ आतंकवादं कट्वालोचितवन्तौ। प्रधानमन्त्री कार्यालयानुसारेण उभाभ्यां पश्चिम एशिया स्थितौ अपि विचार विमर्शः कृतः। केन्द्रीयः गृहमन्त्री अमितशाहः विशेष गहन संशोधन अभ्यासस्य SIR इत्येतस्य समर्थनपक्षे प्रोक्तवान् यत् संविधानेन निर्वाचनायोगाय मतदात्री सूची निर्माणस्य एकमात्रम् अधिकाराः प्रदत्ताः। श्रीशाहः सबलं प्रोक्तवान् यत् मतदात्री सूच्याः विशेष गहन संशोधनकार्यं निर्वाचनायोगस्य उत्तरदायित्वम्। एतस्य उद्देश्यं मतदात्री सूच्याः शुद्धीकरणं वर्तते। श्रीशाहेन एते विचाराः गतदिने लोकसभायां निर्वाचन परिष्कार विषये चर्चायाः प्रत्युत्तरे प्रकटिताः।
मान्यवर, मेरा बहुत स्पष्ट मत है कि SIR पर इस सदन पे चर्चा नहीं हो सकती, क्योंकि गहन पुनर्निरीक्षण की जिम्मेदारी भारत के चुनाव आयोग की। भारत का चुनाव आयोग और चुनाव आयुक्त ये सरकार के तहत काम नहीं करते। खड़े किए जाएंगे तो इसका जवाब कौन देगा? मान्यवर, जब उन्होंने कहा कि हम चुनाव सुधार पर चर्चा करने के लिए तैयार है, हम तुरंत मान गए।
भारतीय रेलयान मन्त्रालयेन वित्तीय वर्षाय यात्रिणां साहाय्यार्थं 60,000 कोटि रूप्यकाणां साहाय्य राशि समुद्घोषिता। गतदिने लोकसभायां पूरक प्रश्नोत्तरे रेलयान मन्त्री अश्विनी वैष्णवः प्रोक्तवान् यत् यात्रिभ्यः प्रदत्तमाना राशिः यात्रायाः प्रायशः 45% वर्तते। केन्द्रीय स्वास्थ्य मन्त्रालयेन विश्व स्वास्थ्य संगठनेन सह सहभागितां विधाय गतदिने नवदिल्ल्यां महिलानां बालिकानां च स्वास्थ्यं तथा सुजीवनम् अधिकृत्य मासात्मकः दिल्ली मेट्रो अभियानं प्रचालितम्। स्वास्थ्य परिवार कल्याण मन्त्रालयेन प्रोक्तं यत् अस्य अभियानस्य उद्देश्यम् अस्ति यत् मेट्रोयानेषु तथा केषुचित् स्थानकेषु प्रदर्शितानां सन्देश शानां माध्यमेन लक्षशः यात्रिकाः जागरूकाः भवेयुः इति। गतदिने जयपुरनगरे राजस्थान प्रवासी दिवसः आमानितः। एतस्मिन् उत्सवे भारतस्य विभिन्न राज्येभ्यः विदेशेभ्यश्च आगताः प्रवासिनः राजस्थानस्य प्रवासी दिवसम् आलक्ष्य सहभागित्वम् अकरोत्। अस्य उत्सवस्य प्रमुखो अभिप्रायः अस्ति यत् प्रवासी राजस्थान निवासिनां स्वसंस्कृति मूलैः सह सम्बन्धं सुदृढीकर्तुं तेषां च राज्यविकासे योगदानं प्रदातुं सुनिश्चितं वर्तते। उद्घाटन समारोहे भाषमाणः मुख्यमन्त्री भजनलाल शर्मा प्रोक्तवान् यत् राजस्थाने व्यापार उद्योगयोः कृते अपारं सामर्थ्यं वर्तते। अन्ते च क्रीडा वार्तासु भारत दक्षिणाफ्रीका देशयोः मध्ये अनुवर्तमानायाः पञ्च स्पर्धात्मिकायाः 20-20 क्रिकेट स्पर्धा मालिकायाः द्वितीया स्पर्धा अद्य चण्डीगढ़ क्रीडांगणे स्पर्धिष्यते। अवधेयं यत् पञ्च स्पर्धा मालिकायाः प्रथमा स्पर्धा भारतेन विजिता। एतेन भारतम् 1-0 इत्यन्तरालेन अग्रेसरत्वं भजते। इति वार्ताः।